पश्यन्त्वेनं भवन्तः सुरसतमुकुटै रर्च्यमानाङ्घ्रिपद्मं कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्रोपगीतैर्दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकल साम्प्रतं नारकाणाम्।